इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य नवदेहल्यां नारी शक्ति वन्दन सम्मेलनम् इति सम्बोधयिष्यते। भारतीय विकासमार्गस्य निर्माणे महिलानां महत्तर सहभागितायाः प्रतिबद्धतां सुदृढं कर्तुं राष्ट्रियस्तरस्य सम्मेलनस्य आयोजनं क्रियते। सम्मेलनमेतत् पञ्चायत इत्यतः संसत्पर्यन्तं सर्वेषु स्तरेषु शासनस्य नेतृत्वे महिलानां वर्धमानां भूमिकां प्रकाशयिष्यति। कार्यक्रमः निर्णयप्रक्रियासु महिलानां वर्धित प्रतिनिधित्वस्य महत्वम् अपि अधोरेखितुं शक्नोति। विविध क्षेत्राणां महिला साधकाः सर्वकारस्य शैक्षणिक क्षेत्रस्य विज्ञानस्य क्रीडायाः उद्यमशीलतायाः प्रसारमाध्यमस्य सामाजिक कार्यस्य संस्कृतेः इत्यादीनां विभिन्न क्षेत्राणां प्रतिनिधयः अस्मिन् कार्यक्रमे भागं गृहीष्यन्ति। सम्मेलनं 47-2000 वर्षपर्यन्तं विकसित राष्ट्रं कर्तुं भारतस्य यात्रायां महिलानां भूमिकां प्रकाशयिष्यति। संसदीय कार्यमंत्री किरेन रिजिजुः अवदत् यत् भारतस्य महिलाभ्यः कृतानि आश्वासनानि भ्रामक राजनीतिः भवितुं न शक्नोति इति। सामाजिक प्रसार माध्यमे श्री रिजिजुः अवदत् यत् यदा नारी शक्ति वन्दन अधिनियम इत्यस्य विवरणस्य समयः अस्ति, दशकान् यावत् महिला आरक्षणम् आश्वासनमेव आसीत्, अयं सर्वकारः तत् वास्तविकतायां पर्यवर्तयत् इति। भाजपा पक्षस्य वरिष्ठः नेता प्रधानमन्त्री च नरेन्द्रमोदी उक्तवान् यत् सिलिगुडीति क्षेत्रं राष्ट्रस्य सुरक्षायै अतिमहत्वपूर्णमस्ति, तस्य सुरक्षायै सर्वकारः सर्वविध प्रयत्नान् कुर्वन् अस्ति। प्रधानमन्त्री पश्चिमबंगस्य सिलिगुडीनगरस्य कवखली क्षेत्रे ह्यः जनसभां सम्बोधयन् आरोपम् अकरोत् यत् सत्ताधारी तृणमूल कांग्रेसदलं मदरसा विद्यायाः विकासाय 6,000 कोटि रूप्यकाणि विनियोजयति, पूर्वोत्तरस्य प्रवेशद्वारभूताय उत्तरबंगाय च आयव्ययिक आवंटनं प्रदातुं असफलः अस्तीति।
मदरसों के लिए करीब 6,000 करोड़ रूपये का बजट दिया, लेकिन इतने बड़े नॉर्थ बंगाल के डेवलपमेंट के लिए बंगाल सरकार पर्याप्त बजट नहीं देती। टीएमसी सिर्फ अपने खास वोट बैंक के तुष्टीकरण में ही वो दिन रात लगी हुई है।
पश्चिम बंगस्य विधानसभा निर्वाचनात् पूर्वं प्रचारः तीव्रः भवति। भाजपा पक्षस्य वरिष्ठः नेता तथा केन्द्रीय गृहमन्त्री अमित शाहः अद्य बीरभूम पश्चिम वर्धमान क्षेत्रयोः सघन प्रचारे भविष्यति। अपरत्र तृणमूल कांग्रेस इत्यस्य प्रमुखा ममता बैनर्जी अपि अद्य सम्पूर्णे राज्ये बहुविध प्रचार कार्यक्रमान् आयोजयिष्यति। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः अद्यारभ्य गुजरात महाराष्ट्रयोः चतुर्दिवसीय यात्रायां भविष्यति। अद्य राष्ट्रपतिः एम्स राजकोट इत्यस्य प्रथम दीक्षान्त समारोहे अपि भागं ग्रहीष्यति। श्वः राष्ट्रपतिः डॉ बी आर अम्बेडकर इत्यस्य जन्मवार्षिक्यावसरे गांधीनगरस्य लोकभवने सामाजिक समरसता महोत्सव इत्यस्मिन् भागं ग्रहीष्यति। सा गांधीनगरे एव राष्ट्रिय रक्षा विश्वविद्यालयस्य पञ्चम दीक्षान्त समारोहे अपि भागं ग्रहीष्यति। विदेश कार्यमंत्री डॉ एस जयशंकरः संयुक्त अरब अमीरात देशस्य द्विदिवसीय आधिकारिक यात्रां समापयत्, येन अमीरात नेतृभिः सह उच्चस्तरीय मेलनं समाप्यते। सुप्रसिद्ध गायिकायाः आशा भोसले इत्यस्याः अन्तिमसंस्कारः अद्य सायं 4 वादने मुम्बईनगरस्य शिवाजी उद्याने राज्यसम्मानेन भविष्यति। सा ह्यः 92वे वयसि मुम्बई चिकित्सालये दिवंगता। प्रसिद्ध गायकत्वेन प्रसिद्धा आशाताई इत्येषा पद्मविभूषणं महाराष्ट्रभूषण पुरस्कारं च सम्प्राप्ता आसीत्। वार्षिक अमरनाथ यात्रा अस्मिन् वर्षे जुलाई मासस्य 3 दिनांकादारभ्य अगस्त मासस्य 28 दिनांके रक्षाबन्धनं यावत् समाप्स्यते। अन्ते क्रीडावार्तायाम्, आईपीएल क्रिकेट क्रीडायां रॉयल चैलेंजर्स बेंगलोर दलं गतरात्रौ मुम्बईनगरे मुम्बई इंडियंस दलं 18 धावनांकैः पराजयत्। अद्यतनायां क्रीडायां हैदराबाद नगरे सनराइजर्स हैदराबाद राजस्थान रॉयल्स इत्येते दले क्रीडिष्यतः इति वार्ताः।